सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं कुर्मः। भगिनी एकवारं स्मारयतु।
येनाक्षरसमां न्यायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन दौदागिरपुंसा विमलैशब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ श्रीगुरुभ्यो नमः। धन्यवादः भगिनि।
धन्यवादाः। प्रवर्तमानः विषयः अष्टाध्याय्याः समग्रदृष्टिः। अष्टाध्यायीग्रन्थः यद्यपि लघुग्रन्थः तथापि सम्पूर्णसंस्कृतभाषायाः आधारभूतग्रन्थः। सम्पूर्णसंस्कृतभाषायाः मानचित्रमस्ति तस्मिन् ग्रन्थे। अष्टाध्याय्याः मूलबीजं प्रकरणं, गते वर्गे प्रकरणं प्रक्रिया अनयोः भेदः अवगतः। अस्मिन्नेव करपत्रे उपरितनभागे पाकशालायाः उदाहरणं दत्त्वा मातृभिः पाठितमासीत्। इत्युक्ते प्रक्रियाप्रकरणयोः पार्थक्यं पाठितमासीत्। भोजननिर्माणार्थं सामग्री आवश्यकी, मार्गनिर्देशः अपि आवश्यकः। एवमेव संस्कृतभाषायाः पाकशालायाम् अपि सामग्री आवश्यकी। सामग्री इत्युक्ते धातवः, प्रत्ययाः, प्रातिपदिकानि, इमानि सर्वाणि मिलित्वा सामग्री इति वदामः। मार्गनिर्देशः इत्युक्ते सूचनाः आवश्यकाः। मार्गनिर्देशः इत्युक्ते सूत्राणि। भाषायाः पाकशालायाम् अपि प्रत्येकं पदस्य निर्माणसमये कार्याणि सोपानक्रमेण भवन्ति खलु। कस्मिन् सोपाने किं कार्यं भवति, केन क्रमेण कार्याणि भवन्ति, सोपानक्रमे सर्वाणि सोपानानि सङ्गृह्य, सर्वाणि सोपानानि मिलित्वा प्रक्रिया इति वदामः। प्रक्रियायाः पठनेन प्रत्येकं सूत्रस्य सम्पूर्ण अवगमनं न जायते। वैयाकरणसिद्धान्तकौमुदी इत्यादयः ग्रन्थाः प्रक्रियाग्रन्थाः, तेषां पठनेन प्रक्रिया ज्ञायते। प्रक्रियापि आवश्यकमेव, किन्तु प्रत्येकं सूत्रस्य सम्पूर्ण अर्थः कः, तस्य सूत्रस्य कार्यम् अन्यत्र भवति वा, तत् सूत्रम् अपवादसूत्रं वा, नो चेत् संज्ञासूत्रं वा, एतत् ज्ञानमपि अपेक्षितम्। तस्मिन् सूत्रे अनुवृत्तयः काः, तस्मात् सूत्रात् प्राक् कानि कानि सूत्राणि सन्ति, प्रत्येकस्मिन् सूत्रे कानि कानि पदानि पूर्वसूत्रात् अनुवृत्तानि भवन्ति, एतत् सर्वं ज्ञानमपि आवश्यकम्। एतत् ज्ञानं प्रक्रियाग्रन्थस्य पठनेन न प्राप्यते। अष्टाध्यायीक्रमेण प्रकरणक्रमेण पठनेन एव एतत् ज्ञानं प्राप्यते। अष्टाध्यायीग्रन्थः प्रकरण आधारितग्रन्थः। प्रकरणम् इत्युक्ते यत्र एकविधकार्याणां सम्पूर्णज्ञानं लभ्यते तदेव प्रकरणम्। इत्युक्ते येषां येषां सूत्राणां द्वारा समानप्रकारककार्यं भवति, तानि सूत्राणि एकत्र स्थापितानि सन्ति, अष्टाध्यायीग्रन्थे सन्ति, तदेव प्रकरणम्। अपि च प्रकरणेषु प्रथमसूत्रे यानि पदानि दत्तानि तानि पदानि सर्वाणि न अनुवृत्तानि भवन्ति, विशेषतया सूत्रस्य अर्धावगमनार्थम् अर्धपूरणार्थं यानि पदानि आवश्यकानि तानि पूर्वसूत्रात् अग्रिमेषु सूत्रेषु अनुवृत्तानि भवन्ति। अनुवृत्तिसहितसूत्रं पठामश्चेत् सूत्रार्थं सम्यक् अवगन्तुं शक्नुमः। अनुवृत्तिसहितसूत्रम् एकं वाक्यम् इव दृश्यते। प्रकरणक्रमेण पठनेन तत् सौलभ्यम् अस्ति। अष्टाध्याय्यां प्रकरणानि सन्ति। ग्रन्थः प्रकरण आधारितग्रन्थः। अस्माकम् अवगमनार्थम् इत्संज्ञाप्रकरणस्य विषये दत्तमस्ति। इत्संज्ञाप्रकरणम्, णत्वप्रकरणं, द्वित्वप्रकरणं, सम्प्रसारणप्रकरणम्, आत्वप्रकरणम्, एवं प्रकरणानि सन्ति। इत्संज्ञाप्रकरणस्य प्रसङ्गे भवन्तः सर्वे गते सप्ताहे मिलित्वा पठितवन्तः इति अहं चिन्तयामि। इदानीम् अग्रिमम् उदाहरणं, नूतनम् उदाहरणं द्वित्वप्रसङ्गे किञ्चित् अवगन्तुं प्रयत्नं कुर्मः। द्वित्वप्रकरणं प्रकरणक्रमेण पठनेन प्रत्येकस्मिन् सूत्रे अनुवृत्तयः काः, तस्य सूत्रार्थः कः इति सम्पूर्णतया ज्ञायते इति अत्र आशयः। द्वित्वप्रकरणम् अद्य पठेम। अन्यत् उदाहरणम् अन्य इति विशेषणमस्ति इति कृत्वा स्त्रीलिङ्गे अन्या, पुंलिङ्गे अन्यः, नपुंसकलिङ्गे अन्यत्. अपि च अस्मिन् करपत्रे द्वित्वप्रकरणम् इत्यस्मात् पूर्वम् एकं पदं दत्तमस्ति, दृश्येत. संक्षेपे प्रकरणस्य अन्यत् उदाहरणद्वयं दीयते येन प्रकरणसम्बद्ध अनुवृत्तिः स्पष्टतया दृश्येत इति लिखितमस्ति. दृश्येत इति पदं कर्मणि विधिलिङ्ग्, कर्मणि प्रयोगे दृश्य धातोः रूपं किं भवति लट्लकारे, दृश्यते. दृश्यते इति कर्मणि लट्, किन्तु अत्र कर्मणि विधिलिङ्ग् रूपं दत्तमस्ति. कर्मणि प्रयोगे भावकर्मणोः इति सूत्रेण आत्मनेपदसंज्ञकप्रत्ययाः धातोः परं विधीयन्ते, अतः दृश्यते इति रूपं सिद्ध्यति. दृश्यधातोः कर्मणि विधिलिङ्ग् रूपाणि कथं भवन्ति? दृश्येत, दृश्येयातां, दृश्येरन्, दृश्येथाः, दृश्येयाथां, दृश्येध्वं, दृश्येय, दृश्येवहि, दृश्येमहि. इमानि रूपाणि कर्मणि विधिलिङ्ग् रूपाणि. अष्टाध्यायीक्रमेण पठनेन महत् सौलभ्यम् अस्ति. अष्टाध्यायीग्रन्थः पाणिनिना विरचितः, किन्तु पाणिनिना केवलं सूत्राणि एव उक्तानि, पाणिनिना अनुवृत्तिसहितसूत्राणि न दत्तानि. पाणिनेः अनन्तरं ये ये वैयाकरणाः आगतवन्तः ते व्याख्यानानि लिखितवन्तः. व्याख्यानेषु अनुवृत्तयः उच्यन्ते, तेषाम् आधारेण एव अनुवृत्तिसहितसूत्रम् अवगन्तुं शक्नुमः. पाणिनिना अनुवृत्तिसहितसूत्राणि न लिखितानि, अग्रिमाः वैयाकरणाः एव व्याख्यानानि लिखितवन्तः. व्याख्यानेषु अनुवृत्तयः दीयन्ते. सम्पूर्ण अष्टाध्याय्यां द्वित्वं कुत्र कुत्र भवति इति प्रश्नः उदेति. कैः सूत्रैः द्वित्वं भवति? द्वित्वं कथं भवति? निषेधकसूत्राणि सन्ति वा? द्वित्वप्रसङ्गे संज्ञासूत्राणि अपि सन्ति, विधिसूत्राणि अपि सन्ति. द्वित्वप्रसङ्गे संज्ञासूत्राणि सन्ति, विधिसूत्राणि सन्ति, निषेधकसूत्राणि सन्ति. इत्युक्ते कैः सूत्रैः द्वित्वं निषिध्यते इति अपि प्रकरणे दत्तमस्ति. द्वित्वकार्यसम्बद्धसर्वाणि सूत्राणि एकत्र स्थापितानि द्वित्वप्रकरणे. तस्मिन् प्रसङ्गे अद्य किञ्चित् अवगन्तुं प्रयत्नं कुर्मः. सत्यभामा भगिनी, भवती आरम्भं करोतु द्वित्वप्रकरणम्.
द्वित्वप्रकरणम् षष्ठाध्यायस्य प्रथमपादस्य प्रथमसूत्रात् आरभ्य षष्ठाध्यायस्य प्रथमपादस्य द्वादशसूत्रपर्यन्तं प्रकरणमस्ति. अस्य प्रकरणस्य द्वादशसु सूत्रेषु एव सम्पूर्णतया संस्कृतभाषाया कुत्र कुत्र द्वित्वम् अपेक्षते इति सूच्यते. अपि च यत्र कुत्रापि द्वित्वम् अपेक्षते तच्च द्वित्वं कथं क्रियते इत्यपि सूच्यते अत्र.
अत्र किमस्ति?
अत्र किम् अस्ति इति चेत् सूत्रस्य व्याप्ति कियत् पर्यन्तम् इति उक्तमस्ति. तदस्ति षष्ठाध्यायस्य प्रथमपादस्य प्रथमसूत्रात् आरभ्य अनन्तरं द्वादशसूत्रपर्यन्तं. द्वादशसूत्राः द्वित्वसूत्र द्वित्वप्रकरणे अस्ति सन्ति. अष्टाध्याय्यां संस्कृतभाषाया कुत्र कुत्र द्वित्वकार्यम् अपेक्षते तत्सर्वं एते प्रकरणे विद्यमानसूत्रेषां सूत्राणाम् आधारेण एव भवति.
सूत्रं नपुंसकलिङ्गपदम्, एतत् सूत्रम्, एतस्मिन् सूत्रे एवं वक्तव्यमस्ति. भगिनी, सूत्राधिकारः कुत्र पर्यन्तमस्ति?
षष्टाध्यायस्य प्रथमपादस्य द्वादशसूत्रपर्यन्तम्.
आहत्य कति सूत्राणि सन्ति?
द्वादशसूत्राणि सन्ति.
उत्तमम्. एकं द्वे त्रीणि एवं वदामः, किन्तु पूर्णप्रत्ययान्तशब्दाः इति केचन शब्दाः सन्ति. एक इत्यस्मिन् स्थाने प्रथमम् इति वक्तव्यं, द्वे स्थाने द्वितीयं, तृतीयं, चतुर्थं, पञ्चमम् एवं वदामः, किन्तु षष्टमम् इति न वदामः. षष्टं सूत्रं किन्तु विंशति आरभ्य विंशतितमं सूत्रम् अथवा विंशं सूत्रं विंशति आरभ्य विकल्पेन रूपद्वयम् अस्ति इत्युक्ते विंशतितमं सूत्रम् इत्यपि साधु विंशं सूत्रम् इत्यपि साधु सूच्यते इति कीदृशं पदम्
सूच्यते इति कर्तरि कर्मणि प्रयोगः
कर्मणि लट् खलु सूचयति कर्तरि लट् रूपम् अस्ति कर्मणि लट् सूच्यते सूचयित्वा सूचयितुं सूचितः सूचनम् इमानि कृदन्तपदानि सूचयित्वा क्त्वान्तरूपं सूचयितुं तुमुन्नन्तं सूचितं क्तान्तं सूचनं ल्युडन्तं सूचना इत्यपि अस्ति अत्र किमस्ति सूच्यते किं सूच्यते द्वित्वं कथं क्रियते इति सूच्यते भगिनी भवत्याः पुरतः पुस्तकमस्ति वा अष्टाध्यायीसूत्रपाठः दीक्षितपुष्पाकृत प्रकरणनिर्देशसमन्वितः सर्वेषां पुरतः पुस्तकमस्ति वा एकवारम् उद्घाटयन्तु
आम् अस्ति भगिनि
उत्तमं पुस्तकस्य नाम अस्ति अष्टाध्यायीसूत्रपाठः दीक्षितपुष्पाकृतप्रकरणनिर्देशसमन्वितः अष्टाध्यायीसूत्रपाठः महर्षिपाणिनिप्रणीतः इति पुस्तकं पश्यन्तु तस्मिन् पुस्तके एकशतं पुटं पश्यन्तु तत्र स्तम्भद्वयमस्ति द्वितीये स्तम्भे षष्ठाध्याये प्रथमपादः इति लिखितमस्ति एकशतं पुटं पश्यन्तु तस्मिन् पुटे स्तम्भद्वयमस्ति द्वितीये स्तम्भे अधोभागे षष्ठाध्याये प्रथमपादः द्वित्वप्रकरणम् इति लिखितमस्ति भगिनी दृष्ट्वा एकवारं सूत्राणि पठतु
षष्ठाध्याये प्रथमपादः द्वित्वप्रकरणम् एकाचे द्वे प्रथमस्य एकाच् इति च द्वे इति च प्रथमस्य इति च तृतीयम् अधिकृतं वेदितव्यं प्राक् सम्प्रसारणविधानात् अजादेर्द्वितीयस्य तृतीयसूत्रं नन्द्रा संयोगादयः अभ्याससंज्ञा चतुर्थसूत्रं पूर्वाभ्यासः संज्ञासूत्रमस्ति उभयाभ्यस्तं तदपि संज्ञासूत्रं यच्छित्यादयः षट् तुदादीनां दीर्घो अभ्यासस्य लिडि धादोः रन अभ्यासस्य सन् यमोः स्लौ चङि द्वाश्वान् साह्वान् मीढ्वांश्च
उत्तमं भगिनि अनेन किञ्चित् अभ्यासः भवति तदर्थम् उक्तवती पश्यन्तु एकाचो द्वे प्रथमस्य अजादेर्द्वितीयस्य नन्द्राः संयोगादयः एतानि त्रीणि सूत्राणि आदौ दत्तानि किमर्थम् एकाचो द्वे प्रथमस्य अजादेर्द्वितीयस्य अनेन सूत्रद्वयेन द्वित्वं क्रियते संस्कृतभाषायां कुत्र द्वित्वं भवति धातौ कस्मिन् स्थाने द्वित्वं भवति अनेन सूत्रद्वयेन उच्यते तृतीयमस्ति नन्द्राः संयोगादयः नन्द्राः इत्यत्र न इति पृथक्तया लिखितमस्ति सूत्रस्य आदौ एव न अस्ति इति कारणतः इदं सूत्रं निषेधकसूत्रम् अनेन सूत्रेण निषेधः भवति नन्द्राः संयोगादयः इति सूत्रेण अग्रे अभ्याससंज्ञा इति दत्तमस्ति पूर्वोऽभ्यासः इति सूत्रं संज्ञासूत्रम् प्रथमानि त्रीणि सूत्राणि विधिसूत्राणि इत्युक्ते प्रथमसूत्रेण द्वित्वं विधीयते द्वितीयसूत्रेणापि द्वित्वं विधीयते तृतीयसूत्रेण द्वित्वकार्यं निषिध्यते चतुर्थं सूत्रं संज्ञासूत्रं संज्ञा इत्युक्ते नामकरणम् अभ्यासः इति एका संज्ञा वयं सर्वे जानीमः खलु वृद्धिः इति एका संज्ञा गुणः इति एका संज्ञा एवमेव संस्कृतभाषायां बह्व्यः संज्ञाः सन्ति तेषु अन्यतमा संज्ञा अभ्याससंज्ञा अत्र पूर्वोऽभ्यासः इति सूत्रं संज्ञासूत्रं तेन अभ्याससंज्ञा नाम किम् इति अवगम्यते अग्रिमं सूत्रम् उभे अभ्यस्तम् उभे अभ्यस्तं सूत्रमपि संज्ञासूत्रमेव तदर्थमेव उपरि लिखितमस्ति. अभ्याससंज्ञा भिन्ना, अभ्यस्तसंज्ञा भिन्ना. अत्र संज्ञासूत्रद्वयं दत्तमस्ति, पूर्वाभ्यासः इति अभ्याससंज्ञासूत्रम्, उभे अभ्यस्तम् इति अभ्यस्तसंज्ञासूत्रम्. इदं सूत्रद्वयम् आवश्यकं द्वित्वप्रकरणे. अग्रिमं सूत्रं जक्षित्यादयः षट्. जक्षित्यादयः षट् इत्युक्ते जक्षधातुः अपि च अन्ये षट् धातवः, आहत्य सप्तधातवः. एतेषां सप्तानां धातूनां प्रसङ्गे किम् उक्तमस्ति द्वित्वप्रसङ्गे इति अनेन सूत्रेण ज्ञायते. अग्रिमं सूत्रं तुजादीनां दीर्घोऽभ्यासस्य. तुज् आदीनां, तुज् इति एकः धातुः अस्ति, तुज् आदयः इत्युक्ते तुज् धातुः अपि च अन्ये केचन धातवः सन्ति, तेषां प्रसङ्गे दीर्घोऽभ्यासस्य. द्वित्वं भवति चेत् तत्र अभ्याससंज्ञा भवति चेत् अभ्यासस्य दीर्घत्वं भवति इति तेन उच्यते. अग्रिमसूत्रं पश्यन्तु, लिटि धातोरनभ्यासस्य. तत्र सन्धिकार्यं कृतमस्ति लिटि धातोः अनभ्यासस्य. पूर्वमुक्तं खलु अभ्याससंज्ञा, अत्र अनभ्यासस्य इति उक्तमस्ति सूत्रे. लिटि धातोः अनभ्यासस्य, संयङ्गोः श्लौ चङ्गि दाश्वान् साह्वान् मीढ्वांश्च. अत्र किमस्ति, संस्कृतभाषायां कुत्र कुत्र द्वित्वं भवति इति अष्टमसूत्रात् आरभ्य एकादशसूत्रपर्यन्तम् उक्तमस्ति. लिटि धातोरनभ्यासस्य, संयङ्गोः श्लौ चङ्गि इत्युक्ते लिट् लकारे द्वित्वं भवति. वयं जानीमः खलु भूतकालार्थं बोधयति लिट् लकारः. लिट् लकाररूपं वयं जानीमः खलु उवाच. उवाच इति लिट् लकाररूपं, वच् धातोः रूपम् अस्ति. लिटि धातोरनभ्यासस्य सूत्रेण लिट् लकारे द्वित्वं भवति. अग्रिमं सूत्रं संयङ्गोः इत्युक्ते सनन्तरूपसाधनवेलायां यङन्तरूपसाधनवेलायां द्वयोः प्रसङ्गे द्वित्वं भवति. केन सूत्रेण? संयङ्गोः सूत्रेण. सन्नन्तधातुः इत्युक्ते द्वादश सनादिप्रत्ययाः सन्ति, तेषु णिच् प्रत्ययः अन्यतमः. णिच् प्रसङ्गे वयं जानीमः तेषु द्वादशसु सनादिप्रत्ययेषु सन् प्रत्ययः एकः. प्रेरणार्थे णिच् प्रत्ययः विहितः भवति. सन् प्रत्ययः कस्मिन् अर्थे विहितः भवति इत्युक्ते इच्छार्थे. इच्छार्थे सन् प्रत्ययः विहितः भवति. धातोः परम् इच्छार्थे सन् प्रत्ययः योजयामः. पिपठिष्यति, जिगमिषति ईदृशानि पदानि सन्नन्तधातुतः निर्मितानि पदानि. जिगमिषति गम् धातुतः सन् प्रत्ययस्य योजनेन जिगमिष इति धातोः निर्माणं भवति. पठ् धातुतः सन् प्रत्ययस्य योजनेन पिपठिष इति नूतनधातोः निर्माणं भवति. एवं सन्नन्तरूपसाधनवेलायां संयङ्गोः इति सूत्रेण द्वित्वं भवति. एवमेव यङन्तधातोः रूपसिद्धौ अपि संयङ्गोः इति सूत्रेण द्वित्वं भवति. संयङ्गोः सूत्रेण यङन्तरूपसिद्धौ अपि. दाधातोः रूपं देदीयते, नीधातोः रूपं नेनीयते. पट्टधातोः यङन्तरूपं पापठ्यते. एवं रूपाणि भवन्ति. वारं वारं पठति इत्यस्मिन् अर्थे पठ् धातुतः यङ् प्रत्ययं योजयामश्चेत् पापठ्यते इति रूपं सिद्ध्यति. इत्युक्ते सन्नन्तरूपसाधनवेलायां संयङ्गोः सूत्रेण द्वित्वं भवति. यङन्तरूपसाधनवेलायाम् अपि संयङ्गोः सूत्रेण द्वित्वं भवति. अपि च श्लौ इति सूत्रं दत्तमस्ति. श्लौ इति सूत्रं जुहोत्यादिगणीयधातूनां प्रसङ्गे उक्तमस्ति. जुहोत्यादिगणे द्वित्वं भवति इति वयं पठितवन्तः. जुहोत्यादिगणे आदौ किं भवति? शपं प्रबाध्य जुहोत्यादिभ्यः श्लुः इति सूत्रेण शपः श्लू भवति. शप् प्रत्ययस्य श्लू भवति. श्लू इति एकप्रकारकः लोपः. लुक् इति अन्यप्रकारकः लोपः. अदादिगणे शप् प्रत्ययस्य लुक् भवति. जुहोत्यादिगणे शप् प्रत्ययस्य श्लू भवति. श्लू आधारीकृत्य तत्र विशिष्टानि कार्याणि भवन्ति. इत्युक्ते शप्रत्ययस्य लोपः भवति. अपि च जुहोत्यादिगणे श्लौ इति सूत्रेण द्वित्वकार्यं भवति. इत्युक्ते दशमं सूत्रं श्लौ जुहोत्यादिगणीयधातूनां कृते उक्तमस्ति. जुहोत्यादिगणे द्वित्वं भवति. एकादशं सूत्रमस्ति चङ्गि. तत् सूत्रं लुङ्लकारे कार्यं करोति. लुङ्लकारे चङ्गिसूत्रेण द्वित्वकार्यं भवति. आहत्य लिटिधातोरनभ्यासस्य संयङ्गोः श्लौ चङ्गि एतेषां चतुर्णां सूत्राणां द्वारा संस्कृतभाषायां कुत्र द्वित्वं भवति इति ज्ञातुं शक्नुमः. लिट् लकारे सन्नन्तरूपसाधनवेलायां, यङन्तरूपसाधनवेलायां, जुहोत्यादिगणीयधातूनां प्रसङ्गे, लुङ् लकारे एतेषु पञ्चसु स्थलेषु, केवलं पञ्चसु स्थलेषु एव द्वित्वकार्यं भवति संस्कृतभाषायाम्. अन्तिमं सूत्रमस्ति दास्वान् साह्वान् मीढ्वांश्च. इदं सूत्रं किं करोति? एतत् सूत्रं निषेधकसूत्रम् इत्युक्ते अनेन सूत्रेण लिट् लकारे तत्र त्रयः धातवः सन्ति तेषां प्रसङ्गे द्वित्वकार्यं निषिध्यते. दास्वान् साह्वान् मीढ्वांश्च इति द्वादशं सूत्रमस्ति. अनेन सूत्रेण द्वित्वकार्यं निषिध्यते. आहत्यवार्ता का संज्ञासूत्रद्वयमस्ति. द्वित्वकार्यं कुत्र भवति इति सूत्रद्वयेन उक्तमस्ति. नन्द्राः संयोगादयः सूत्रेण द्वित्वकार्यं निषिध्यते इति उक्तमस्ति. संस्कृतभाषायां पञ्चसु स्थलेषु द्वित्वं भवति, केवलं पञ्चसु स्थलेषु एव. सन्नन्तधातवः इत्युक्ते भवन्तः जानन्ति खलु, द्वादश सनादि धातुप्रत्ययाः सन्ति. द्वादश सनादि धातुप्रत्ययाः, धातुप्रत्ययाः इत्युक्ते धातुं स्वीकृत्य तस्मात् परं सनादिप्रत्ययेषु अन्यतमप्रत्ययस्य योजनेन नूतनधातोः निर्माणं भवति. आतिदेशिकधातुः इत्युक्ते पाणिनिना न उपदिष्टः, अस्माभिः निर्मितः नूतनधातुः निर्मितः. सनाद्यन्ताधातवः इति सूत्रेण नूतनधातोः धातुसंज्ञा भवति. सन् प्रत्ययः इच्छार्थे भवति, णिच् प्रत्ययः प्रेरणार्थे भवति, यङ् प्रत्ययः वारं वारं करोति इत्युक्ते तत्कार्यं वारं वारं करोति, वारं वारं पठति इति वक्तुमिच्छामश्चेत् पापठ्यते, बालकः पापठ्यते इति वक्तुं शक्यते. णिच् प्रसङ्गे द्वित्वं नास्ति, सन् प्रत्ययस्य रूपसिद्धौ द्वित्वं भवति. तदर्थमेव पश्यन्तु, पिपठिषति इति रूपं सिद्ध्यति पठ् धातुतः द्वित्वं भूत्वा. पठ् धातोः यङन्तरूपं पापठ्यते इति भवति, तत्रापि द्वित्वम् अस्ति. इदानीं प्रत्येकं धातुं स्वीकृत्य परिशीलनीयं द्वित्वं कथं करणीयम्. एकाचो द्वे प्रथमस्य इति सूत्रं. नरेश महोदय, भवान् वदतु.
प्रथम तु एकाचो द्वे प्रथमस्य अधिकारसूत्रं द्वादशसूत्रं पर्यन्तं सर्वत्र अनुवर्तते. सूत्रं स्वयं सम्पूर्णं जाग्रे जाग् जाग्रे पच् 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 इ. अत्र दत्तमस्ति धातुः एकाच धातु, यत्र एकः स्वरः अस्ति तत्र प्रथमस्य एकाच स्वरः तत्र द्वित्वं भवति. एतत् अधिकारसूत्रमस्ति. कोऽपि अनुवृत्ति न आवश्यकी, सूत्रं स्वयं सम्पूर्णं. उदाहरणम् अस्ति जाग्रधातु, तत्र
महोदय अत्र त्रीणि उदाहरणानि दत्तानि. सूत्रे द्वे इति उक्तमस्ति, द्वे इत्यस्य अर्थः कः?
द्वित्वम्.
उत्तमं, द्वे इत्युक्ते द्वित्वं भवति. ई धातोः उदाहरणं स्वीकृत्य विवृणोतु, अत्र द्वित्वं कथं भवति ई धातोः उदाहरणम्.
ई धातौ एकः अच् वर्णः, एकः स्वरः अस्ति इ, तस्य द्वित्वं भवति इ इ भवति.
उत्तमम्. ई धातुं स्वीकृत्य द्वित्वकार्यं भवति चेत् इ ई भवति. द्वित्वकार्यानन्तरं इ इति द्वयोः मिलित्वा किं वदामः, द्वयोः मिलित्वा अभ्यस्तसंज्ञा भवति, इत्युक्ते इ इति सम्पूर्णसमुदायस्य अभ्यस्तसंज्ञा भवति. प्रथम इ अस्ति खलु, पूर्वभागस्य अभ्याससंज्ञा भवति, तत्र भेदः अस्ति. द्वित्वकार्यानन्तरम् इ लभ्यते, अस्य सम्पूर्णसमुदायस्य नाम अस्ति अभ्यस्तम्. केवलं पूर्वभागस्य नाम अस्ति अभ्यासः. द्वित्वकार्यानन्तरं पूर्वभागस्य नाम अभ्यासः. ई धातौ एकः एव अचुवर्णः अस्ति. ई धातुः कीदृशधातुः इत्यपि वक्तुमिच्छामश्चेत् अजादिः, धातुः अजादिः. अस्मिन् धातौ एकः एव अचुवर्णः अस्ति. अत्र एकाच् भागः इत्युक्ते ई एव, अत्र केवलम् एकः एव अचुवर्णः अस्ति इति कारणतः प्रथमभागस्य द्वे इत्युक्ते द्वित्वं भवति, प्रथम एकाच् भागस्य द्वित्वं भवति इति अर्थः. प्रथमस्य एकाचः द्वे, प्रथम एकाच् भागस्य द्वित्वकार्यम्. अत्र सुलभमेव खलु, वदतु.
पच् पच् तत्रापि पच् धातुः अस्ति, तत्र एकः अच् वर्णः अस्ति, पकारोत्तरवर्ति अकारः, तत् एकः अच् वर्णः अस्ति, अतः द्वित्वं भवति चेत् पच् 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 भवति.
अयं धातुः कीदृशः इतोपि वर्णयितुम् इच्छामश्चेत्?
एतद् धातुः अग्रे तु हल पकार अस्ति, पकार योग अकार योग चकार, मध्ये अच् वर्णः अस्ति, तत्र द्वित्वं भवति, पच् पच् भवति.
धातुद्वयमस्ति खलु, ई धातुः पच् धातुः, अनयोः भेदः कः?
ई धातुः अजादि अस्ति, अच् वर्णः आदौ अस्ति, परन्तु पच् धातु तत्र तु अच् वर्णः मध्ये आगतः.
ई धातुः अजादिः, प्रथमः एकाच् भागस्य द्वित्वं भवति, तदर्थमेव इ इत्यस्य रूपम् इ इति भवति. पच् धातोः प्रसङ्गे पच् धातौ एकः एव अच् वर्णः अस्ति, इत्युक्ते पकारात् परं यः अकारः अस्ति सः अकारः एकः एव अच् वर्णः. अयं धातुः अपि एकाच् धातुः एव, किन्तु धातुः हलादिः अस्ति, तावानेव भेदः अस्ति. द्वित्वं भूत्वा पच् इत्यस्य रूपं पच् पच् इति भवति. इत्युक्ते धातुः अजादिः वा हलादिः वा इत्यपि द्रष्टव्यं, धातुः एकाच् वा अनेकाच् वा इत्यपि द्रष्टव्यं, तत्र धातोः रूपं कीदृशम् अस्ति इति आदौ द्रष्टव्यं. द्वित्वकार्यप्रसङ्गे धातुः अजादिः वा हलादिः वा, अपि च धातुः एकाच् वा अनेकाच् वा इति द्रष्टव्यम्. अत्र ई धातुः अजादिः एकाच्, पच् धातुः एकाच् एव किन्तु हलादिः. सूत्रे किमुक्तमस्ति, प्रथम एकाच् भागस्य द्वित्वं भवति. प्रथम एकाच् भागस्य द्वित्वं भवति इति कथनेन तस्य तात्पर्यं किम् इत्युक्ते, धातौ बहवः अचुवर्णाः सन्ति चेत्, इत्युक्ते एकस्मात् अधिकाः अचुवर्णाः सन्ति चेदपि केवलं प्रथम एकाच् भागस्य एव द्वित्वं भवति इति अनेन सूत्रेण उच्यते. पच् धातौ एकः एव अचुवर्णः अस्ति, अतः तस्य एव द्वित्वं भूत्वा पच् पच् भवति. इदानीं जागृ विवृणोतु.
इदानीं प्रथम एकाच् भागस्य इति उक्तमस्ति, तत्र पच् तावत् पर्यन्तं प्रथम एकाच् भागः एव वा?
सम्पूर्णशब्दस्य द्वित्वं भवति. इतोपि स्पष्टतया वक्तुमिच्छामश्चेत्, ई धातौ इ इति प्रथम एकाच् अवयवः. धातौ कति अवयवाः सन्ति? एकाच् अवयवाः, प्रथम एकाच् भागः, द्वितीय एकाच् भागः तथा अस्ति वा इति द्रष्टव्यम्. ई धातौ एकाच् भागः एकः एव अस्ति, पच् हलादिः एकाच् अवयवः एकः एव अस्ति, तदर्थं प्रथमस्य एकाच् भागस्य द्वित्वं, किन्तु जागृधातुः किञ्चित् भिन्नः, तत्र किमस्ति महोदय वदतु।
अस्तु भगिनि, प्रथमं तु पच् पच् तत्र एकः अव्ययः अस्ति चेत् तस्य पकार चकार तत् सर्वे एकः भागः अस्ति।
एकः भागः, उत्तमम्। ई धातुः इव अन्यधातवः केचन सन्ति, द इति धातुः अस्ति, द्वित्वं भूत्वा किं भवति?
दा भवति।
उत्तमं। दा धातुः जुहोत्यादिगणे अस्ति, तदर्थमेव तत्र लट्लकाररूपं ददाति अस्ति, तत्र द्वित्वं भूत्वा दादा भवति। तस्मात् परम् अन्यानि कार्याणि सन्ति, धा अस्ति चेत्
दधा
भवति, किन्तु अन्तिमं रूपं लट्लकाररूपं दधाति भवति। तत्र अभ्यासकार्याणि सन्ति, एकदा द्वित्वं भवति चेत् द्वयोः मिलित्वा अभ्यस्तसंज्ञा भवति, पूर्वभागस्य अभ्याससंज्ञा भवति, अभ्यस्तसंज्ञाम् आश्रित्य अन्यानि विशिष्टानि कार्याणि भवन्ति। तदर्थमेव धा धातोः रूपं दधाति। धी अस्ति चेत्
बिभेति।
उत्तमम्। आदौ भी भवति, बिभेति अन्तिमं रूपं सिद्ध्यति। हृ अस्ति चेत् हृ भवति, भ्रु अस्ति चेत् भ्रू भवति। आहत्य अत्र वार्तक, एते धातवः अजादयः अपि च एकाचः, इत्युक्ते तत्र एकः एव अचुवर्णयुक्तभागः अस्ति। प्रथम एकाच् अवयवस्य द्वित्वम् इति अनेन सूत्रेण उच्यते। प्रथम एकाच् अवयवस्य द्वित्वं, प्रथम एकाच् अवयवः कः इति द्रष्टव्यम्। ई धातौ ई एव, पच् धातौ एकः एव अचुवर्णः अस्ति इति कारणतः प्रथम एकाच् अवयवः पच् एव, तदर्थं सम्पूर्णशब्दस्य द्वित्वं भूत्वा पच् भवति। उदाहरणार्थं खाद् अस्ति, वदतु महोदय।
खाद् तत्र अपि एकाच् अस्ति, खाद् भवति।
उत्तमं। खाद् भवति। विश् अस्ति चेत्?
विश् तत्रापि एकाच् अस्ति, विश् अस्ति।
उत्तमं। पठ् अस्ति चेत्?
पठ् तत्रापि एक अच् अस्ति, पठ्।
उत्तमं। लिख् अस्ति चेत्?
लिख् तत्रापि एकाच् अस्ति, लिख्।
भुज् अस्ति चेत्?
भुज् अपि एकाच् अस्ति, भुज्।
साधु महोदय, तदेव। दा धातुः, धा धातुः, भी धातुः, हु अस्ति चेत् हु भवति। हु धातोः रूपमेव जुहोति, हा धातोः रूपमेव जहाति। एते सर्वे धातवः जुहोत्यादिगणे सन्ति, एते धातवः अजादयः एकाचः, किन्तु खाद्, पठ्, लिख्, पच् एते धातवः एकाचः एव, किन्तु हलादयः। अत्र एकाचो द्वे प्रथमस्य इति उक्तमस्ति, किन्तु अत्र मुख्यवार्ता का, धातौ बहवः अचियुक्त अवयवाः सन्ति चेदपि सः धातुः हलन्तधातुः अस्ति चेत् प्रथमभागस्य द्वित्वं, जागृधातोः उदाहरणं परिशीलयामश्चेत् धातौ एकस्मात् अधिकाः एकाच् अवयवाः सन्ति चेदपि धातुः हलादिः चेत् केवलं प्रथमभागस्य द्वित्वं भवति इति जागृधातोः उदाहरणं परिशीलयामश्चेत् अवगन्तुं शक्नुमः। इदानीं वदतु, भवान् वदतु।
जागृ अत्र द्वे अच्वर्णाः सन्ति, अकारः अस्ति अपि च रेकारः अस्ति। प्रथमभाग तु जाग् अस्ति, अतः तस्य द्वित्वं भवति, जागृ अस्ति।
जागृधातुः भिन्नः।
अत्र द्वित्वं भवति जाग्रे सो गकारा नास्ति कथं जाग्रे
पश्यन्तु पुनः एकवारम् अत्र एकाच् भागद्वयमस्ति एकाच् भागद्वयम् इत्युक्ते प्रथमभागः अस्ति जकारः आकारः द्वयोः मिलित्वा जा इति एकः अचुवर्णयुक्तभागः अग्रिमभागः अस्ति गकारः ऋकारः अत्र भागद्वयमस्ति प्रथमभागे जकारः आकारः द्वितीयभागे गकारः ऋकारः अयं धातुः अनेकाच् धातुः अस्मिन् धातौ एकस्मात् अधिकाः अचुवर्णाः सन्ति इदानीं किं करणीयं यद्यपि अस्मिन् धातौ एकस्मात् अधिकाः अचुवर्णाः सन्ति तथापि प्रथमभागस्य एव द्वित्वं भवेत्
संशयः अस्ति भागः किं कर्तुं शक्नोति अहं चिन्तयामि अकारः अचुवर्णः अस्ति तस्य पूर्वम् अपि च अनन्तरं तत् जाग् प्रथमभागः अस्ति तत् न सत्यं
तथा नास्ति महोदय
अस्तु जा केवलं कथं जानीय
प्रथम एकाच् अवयवः कः प्रथम एकाच् अवयवः तद्वाक्यं पुनः चिन्तयतु प्रथम एकाच् अवयवः इत्युक्ते तस्मिन् भागे एकः अचुवर्णः स्यात् जा इत्यत्र जकारः आकारः इति प्रथम एकाच् अवयवः द्वितीयभागः अस्ति गकारः ऋकारः आहत्य अत्र धातुः हलादिः अस्मिन् धातौ स्वरद्वयमस्ति अथवा अचुवर्णद्वयमस्ति अत्र किं भवति एकाचो द्वे प्रथमस्य इति सूत्रेण प्रथम एकाच् अवयवस्य अथवा प्रथम एकाच् भागस्य एव द्वित्वं भवति यद्यपि धातौ बहवः अचुवर्णाः सन्ति तथापि प्रथम एकाच् अवयवस्य एव द्वित्वम् अत्र मुख्यवार्ता का इत्युक्ते धातुः हलादिः अस्ति इति स्मर्तव्यं धातुः हलादिः अपि च अनेकाच् तादृशी स्थितिः अस्ति चेत् यद्यपि अनेकाच् तथापि केवलं प्रथम एकाच् भागस्य एव द्वित्वं किन्तु धातुः अजादिः चेत् भिन्नसूत्रं कार्यं करोति धातुः अजादिः अपि च अनेकाच् द्वितीयं सूत्रं तदर्थमेव उक्तमस्ति पुनः वदामि धातुः अजादिः अपि च अनेकाच् अस्ति चेत् अजादेर्द्वितीयस्य इति सूत्रेण द्वित्वं भवति अत्र जागृधातुः हलादिः अपि च अनेकाच् अस्ति इति कारणतः प्रथम एकाच् भागस्य द्वित्वम् अतः तस्य रूपं द्वित्वानन्तरं जाजागृ इति भवति जाजागृ सम्पूर्णशब्दसमुदायस्य अभ्यस्तसंज्ञा भवति उभे अभ्यस्तम् इति सूत्रेण जा इति पूर्वभागः अस्ति खलु द्वित्वकार्यानन्तरं जा इति पूर्वभागस्य नाम अस्ति अभ्यासः पच् पच् इत्यत्र पूर्वपच् इत्यस्य अभ्याससंज्ञा अस्ति सम्पूर्णशब्दसमुदायस्य अभ्यस्तसंज्ञा अस्ति किमर्थं द्वितीयं सूत्रं पठनीयम् इत्युक्ते केचन धातवः अजादयः अपि च अनेकाचः सन्ति तत्र केन सूत्रेण द्वित्वं भवति तदर्थं द्वितीयं सूत्रं नीलं भगिनी पठित्वा वदतु
एकाचो द्वे प्रथमस्य इति सूत्रं किं वदति चेत् एकस्य एव अचुवर्णः धातौ अस्ति चेत् एव अस्य सूत्रस्य प्रसक्ति अस्ति इति वा
तथा नास्ति धातौ बहवः अचुवर्णाः सन्ति चेदपि केवलं प्रथम एकाच् भागस्य एव द्वित्वं भवति धातुः अनेकाच् चेत् अनेकाच् हलादिः चेत् धातुः एकाच् चेत् तत्र कापि समस्या नास्ति ई धातुः एकाच् तदर्थं द्वित्वं भूत्वा ई भवति दा धातोः प्रसङ्गे दादा भवति किन्तु पच् धातोः प्रसङ्गे किमस्ति तत्रापि एकः एव अचुवर्णः अस्ति इति कृत्वा समग्रधातोः द्वित्वं भवति तदर्थमेव पच् पच् भवति पच् धातोः अपि एकः एव अचुवर्णः तदर्थम् एकाच् भागस्य द्वित्वं भवति किन्तु किमर्थं प्रथमस्य इति उक्तमस्ति सूत्रे धातुः हलादिः अपि च अनेकाच् अस्ति यथा जागृ जागृ इति धातुः अनेकाच् धातुः हलादिधातुः तादृशी स्थितिः अस्ति चेदपि प्रथमस्य एकाच् अवयवस्य एव द्वित्वं भवति. अजादिधातुः एकाच्, हलादिधातुः एकाच्, हलादिधातुः अनेकाच्, एतेषां त्रयाणां प्रसङ्गे प्रथमसूत्रं कार्यं करोति. अवगतं खलु? भवती वदतु किम् अवगतवती.
यदि धातुः अजादि अपि च एकाच् अस्ति चेत् अस्य सूत्रस्य प्रसक्तिः अस्ति. पुनः हलादिधातुः एकाच् अस्ति चेदपि प्रथमभागस्य प्रथम अच् पर्यन्तम् इति द्वित्वं भवति. पच् धातुः अस्ति तत्र अनेन प्रकारेण द्वित्वं भवति.
पट् वदतु.
पट् इति एकाच् हलादिधातुः अस्ति, एकाच् धातुः अस्ति, अतः पट् पट् इति रूपं.
लिखति चेत्,
लिख् अस्ति चेदपि एकाच् अस्ति, हलादिधातुः अस्ति, लिख् लिख् इति भवति.
खादस्ति चेत्,
खादस्ति चेत् तत्रापि अकारः एकाच् अस्ति, हलादिधातुः अस्ति, खाद् खाद् इति रूपं.
गम् अस्ति चेत्,
गम् अत्रापि एकाच् अस्ति, हलादि अस्ति, गम् गम् इति रूपम्.
उत्तमं. जागृप्रसङ्गे वदतु.
जागृधातुः अस्ति, अत्र हलादि धातुः अस्ति, अनेकाच् धातुः अस्ति, अतः इदानीं प्रथम अच्वर्णयुक्तः युक्तवर्णशब्दः अस्ति जा इति, द्वितीयः अस्ति गृ इति, प्रथमभागस्य द्वित्वं भवति, अतः जा जागृ इति रूपम्.
उत्तमं. धातौ एकः एव अच्वर्णयुक्तभागः अस्ति चेत् कापि समस्या नास्ति, किन्तु धातौ एकस्मात् अधिकाः अच्वर्णयुक्तभागाः सन्ति चेत् तदा प्रथमभागस्य एव द्वित्वं, प्रथम एकाच् भागस्य एव द्वित्वम् इति अनेन सूत्रेण उच्यते. धातुः हलादिः चेत् तदर्थमेव जागृधातोः उदाहरणं दत्तमस्ति. किन्तु धातुः अजादिः अपि च अनेकाच् अस्ति चेत् तदा द्वित्वं कथं भवति? नीलं भगिनी, भवती पठित्वा वदतु.
द्वितीयं सूत्रमस्ति अजादेः द्वितीयस्य षष्ठाध्याये प्रथमपादे द्वितीयसूत्रमस्ति, अधिकारसूत्रं. द्वादशसूत्रं पर्यन्तं सर्वत्र अनुवर्तते. सूत्रं स्वयं सम्पूर्णं. ऊर्णु ऊर्णु नु अत्र अजादेः द्वितीयस्य इति यः सूत्रम् अस्ति, अजादेः इत्युक्ते तादृशी धातुः यत्र प्रथमवर्णः स्वरः अस्ति. सो धातुः प्रथमवर्णः स्वरः अस्ति, सः अजादिधातुः. अनन्तरम् अत्र लिखितमस्ति, अत्र यः द्वितीयं करणीयं, द्वितीय एकाच् अवयवः अत्र यः अस्ति, सः प्रथमस्वर यः अस्ति, प्रथमस्वर विहाय द्वितीयस्वरपर्यन्तं यः भागः, सः द्वितीय एकाच् अवयवः. सो अत्र यः उदाहरणं दत्तम् अस्ति ऊर्णु, ऊर्णु इति यः धातुः, अत्र एकम् अन्यवार्ता अस्ति, अजादेः द्वितीयस्य इति स्वर प्रथमे धातु प्रथमवर्णः स्वरः एण्ड् धातुः एकाच् न, धातुः अनेकाच् धातुः, तत्र मोर् देन् वन् स्वरः तत्र. सो ऊर्णु इति यः धातुः अस्ति, तत्र अपि प्रथमः यः वर्णः सः स्वरः दीर्घ उकारः. अनन्तरम् अन्ते अत्र ह्रस्व उकारः अस्ति. सो अत्र धातु एकाच् नास्ति, धातृ अनेकाच् अस्ति. सो अत्र यः द्वित्वं करणीयं, तत्र किमर्थं करणीयम्? अत्र ऊ यः द्वितीय अवयवः यः अस्ति, ऊ विहाय तत्र रकारः नकारः उकारः प्रथमस्वरविहाय द्वितीयस्वरपर्यन्तं यः भागः, सः द्वितीय एकाच् अवयवः इति तस्य संज्ञा भवति. सो ऊर्णु अनन्तरं ऊ विहाय रकार नकार उकारः, परन्तु अत्र रकारः न दृश्यते किमर्थं चेत् तत्र अनन्तरं यः सूत्रम् अस्ति तस्य कारणेन अत्र नकारः रकारः न दृश्यते, रकारः रेफ् अस्ति, हल् अस्ति. सो ऊर्णु इति यः द्वितीय एकाच् अव्ययः सः केवलम् अन्ततो गत्वा नु एव, नु एव अवशिष्यते. सो ऊर्णु नु इति तत्र द्वित्वं करणीयं.
बहु सम्यक् उक्तवती, तदेव
भगिनि. पुनः अत्र अव्यय कथं जानीमः? अत्र ऋणु द्वितीय अव्यय अस्ति न तु केवलं नु. कथं निर्णयं करोमि?
ऊर्णु धातोः प्रसङ्गे बहु किमपि ज्ञातव्यं, किन्तु भगिनी सर्वम् उक्तवती. ऊर्णु इति धातोः प्रसङ्गे पश्यामश्चेत् ऊर्णु धातुः अनेकाच् धातुः. अस्मिन् धातौ एकस्मात् अधिकाः अचुवर्णाः सन्ति. अचुवर्णद्वयमस्ति अस्मिन् धातौ, इत्युक्ते ऊकारः अस्ति अपि च उकारः अस्ति. कथं? प्रथम एकाच् भागः कः? ऊ. द्वितीय एकाच् भागः कः? ऋणु. रेपः, मूर्धन्यणकारः, उकारः, त्रयः वर्णाः मिलित्वा द्वितीयभागः भवति. अत्र धातुः अनेकाच् धातुः, अजादिधातुः. ऊर्णुधातोः प्रसङ्गे अवगन्तुमिच्छामश्चेत् तृतीयं सूत्रमपि पठनीयम्. किमर्थं चेत् तृतीयसूत्रेण अत्र रेफस्य द्वित्वं निषिध्यते, तदर्थं तृतीयं सूत्रमपि आवश्यकम्. अस्माकम् अवगमनार्थम् अन्ये केचन धातवः सन्ति मम पुरतः. नीलं भगिनी कृपया वदतु. अजादेर्द्वितीयस्य इति सूत्रस्य अवगमनार्थम् इषि इति एकः धातुः अस्ति मम पुरतः, तत्र द्वित्वं कथं भवति?
इषि इति यः धातुः तत्र अजादिधातुः, तत्र इषि इति इषि इति द्वित्वं करणीयम्.
उत्तमं. प्रथम एकाच् भागः कः? इषि इत्यत्र
ईकारः अस्ति.
द्वितीय एकाच् भागः कः? इषि इत्यत्र
अन्ते ह्रस्व इकारः, षकारः, इकारः.
उत्तमम्. षि इति भागः द्वितीय एकाच् भागः. तादृशी स्थितिः इत्युक्ते यस्मिन् धातौ एकस्मात् अधिकाः अचुवर्णयुक्तभागाः सन्ति अपि च धातोः आदिमवर्णः अचुवर्णः अस्ति चेत्, यथा इषि इति धातुः. इषि इत्यत्र अन्ते इकारः अस्ति, आदौ अपि इकारः अस्ति. सः धातुः अनेकाच् धातुः. तस्यां दशायाम् अजादेर्द्वितीयस्य, द्वितीयस्य एव द्वित्वं भवेत् इति सूत्रेण उच्यते. तदर्थमेव तस्य रूपम् इषिषि इति भवति. भगिनी, ईक्षि इति रूपम् अस्ति. ईक्षि इत्यत्र द्वित्वं कृत्वा किम्?
ईक्षि इति ईक्षिक्षि.
किमर्थं तथा भवति वदतु.
ईक्षि इति प्रथम ई विहाय यः क्षि भागः सः अनन्तरम् आयाति. सो ईक्षि इति प्रथमभागः, क्षि इति द्वितीयभागः.
अतः द्वित्वानन्तरम् ईक्षिक्षि इति रूपं सिद्ध्यति. उखि अस्ति चेत्?
उखि अस्ति चेत् उखिखि.
उखिखि. साधु भगिनी उत्तमरीत्या उक्तवती. इदं सूत्रम् अजादि अनेकाच् धातूनां प्रसङ्गे कार्यं करोति. एतस्य अवगमनार्थम् इषि, ईक्षि, उखि एतादृशान् धातून् परिशीलयामश्चेत् सम्यक् अवगन्तुं शक्नुमः. ऊर्णु इति धातोः प्रसङ्गे अपि अस्य प्रसक्तिः अस्ति. ऊर्णु इत्यत्र उ इति प्रथमभागः, ऋणु रेपः, णकारः, उकारः, एते त्रयः वर्णाः मिलित्वा द्वितीय एकाच् भागः अस्ति. ऊर्णुधातुः अजादिः अनेकाच्, अतः अजादेर्द्वितीयस्य इति सूत्रेण ऊर्णुर्णु इति भवति स्म. भगिनी भवती वदतु, ऊर्णुर्णु इति किमर्थं न भवति?
अत्र यः रकारः अस्ति यथा भगिनी उक्तवती अत्र रकारस्य निषेधः भवति अनन्तरं यः तृतीयसूत्र अस्ति ननद्राः संयोगादयः तत्र संयोगः अस्ति रकारनकारस्य संयोगः अस्ति अतः यः रकारः अस्ति तस्य द्वित्वं न भवतु इति तृतीयसूत्रं वदति. सो तत्र यदि रकारः अपगच्छति तत्र यः पूर्वे यः दन्तिनकारः अस्ति सः एव तत्र तिष्ठति. सो मूर्धन्यनकारः न आयाति. रेफ् अपगच्छति इत्युक्ते तत्र ऊर्नु नु इति भवति.
उत्तमं. यथा भगिन्या उक्तमासीत् ऊर्णु इति धातोः प्रसङ्गे अजादेर्द्वितीयस्य कार्यमस्ति, नन्द्राः संयोगादयः इति सूत्रस्य कार्यमपि अस्ति. किन्तु इषि, उखि, ईक्षि, अटि इत्यादिषु केवलम् अजादेर्द्वितीयस्य इति सूत्रेण द्वित्वं भवति. किमर्थं चेत् ते धातवः अजादिधातवः अनेकाचः. अटि इति धातुः अस्ति चेत् तत्र रूपम् अटिटि. इषि अस्ति चेत् इषिषि. इषिषि इति सम्पूर्णसमुदायस्य अभ्यस्तसंज्ञा. द्वित्वकार्य अनन्तरम् इषिषि इत्यत्र पूर्वभागस्य अभ्याससंज्ञा. अभ्यस्तसंज्ञा भिन्ना, अभ्याससंज्ञा भिन्ना. अटि, इषि ईदृशधातवः कथं सिद्ध्यन्ति इति प्रश्ने सति धातोः परं णिच् योजयामः खलु. णिच् इत्यत्र ईकारः अवशिष्यते खलु, अतः णिजन्तधातवः तेषां सन्नन्तरूपसिद्धौ यङन्तरूपसिद्धौ द्वित्वं करणीयमेव. इषि, उखि, अटि इत्यादयः धातवः द्वितीयसूत्रस्य कृते उत्तमानि उदाहरणानि. इदानीं वयम् ऊर्णु धातोः प्रसङ्गे तृतीयं सूत्रं परिशीलयाम. नरसिंह हेग्डे महोदय, भवान् वदतु तृतीयं सूत्रं किं वदति.
तृतीयसूत्रं नन्द्राः संयोगादयः, षष्ठे अध्याये प्रथमे पादे तृतीयसूत्रम्. अजादेः द्वितीयस्य नन्द्राः संयोगादयः द्वे. ऊर्णु ऊर्णु नु उन्द् योगसन् उयोगन्दि योगश, उयोगन्दि योगदि योगश, उन्दि दिश. अत्र एतत् सूत्रं वदति, एतत् द्वितीयसूत्रं यत् अस्ति अजादे द्वितीयस्य, तत्र न द्रा संयोगादय द्वे. यदा संयुक्ताक्षरः अस्ति संयुक्त, तत्र यदि तस्य आदौ रेफ अस्ति वा नकार अस्ति वा दकार अस्ति चेत् तस्य आदौ यत् अस्ति तत् एतत् त्रयवर्णः तत् द्वित्वं न भवति इति अस्ति. ऊर्णु पश्यामः चेत् तत्र ऊर्णु नु इति दत्तमस्ति. किमर्थम् इत्युक्ते तत्र ऋणु अत्र रेफ प्रथमं श्रूयते, तस्य द्वित्वं न भवति, अतः नु एव द्वित्वं भवति, अतः ऊर्णु नु भवति. अनन्तरम्
कृपया स्थगयतु, तत्र स्थगयतु. भवान् जानाति खलु हलो अनन्तराः संयोगः इति एकं संज्ञासूत्रमस्ति. हलो अनन्तराः संयोगः, हलः इति प्रथमान्तमस्ति, अनन्तराः इत्यपि प्रथमान्तमस्ति, संयोगः इत्यपि प्रथमान्तमस्ति. तस्मिन् सूत्रे त्रीणि पदानि सन्ति, हलो अनन्तराः संयोगः, हलः अनन्तराः संयोगः. तेन सूत्रेण किमुच्यते इत्युक्ते यस्मिन् कस्मिन्नपि शब्दे स्वरस्य विरामं विना, स्वरस्य व्यवधानं विना उच्चारितानां व्यञ्जनानां समूहः एव संयोगः. स्वरस्य विरामं विना उच्चारितानां व्यञ्जनानां समूहः एव संयोगः. अग्नि इति पदमस्ति, तत्र संयोगः कः, केषां वर्णानां संयोगः दृश्यते अग्नि इत्यस्मिन्?
गकार नकार इकारस्य
त्रयः वर्णाः एकत्र सन्ति. स्वरस्य विरामं विना इत्युक्ते अचुवर्णस्य व्यवधानं विना व्यञ्जनानि तत्र उच्चारितानि, स्वरस्य व्यवधानं विना लिखितानि. ज्ञानम् इत्यत्र ज्ञा वदतु, ज्ञा प्रसङ्गे
तत्र जकार अस्ति, नकार अस्ति, अनन्तरम् आकार अस्ति.
कृष्ण इत्यत्र
कार अस्ति, रेफ अस्ति, ऋकार अस्ति.
कृष्ण इत्यत्र शकारः, मूर्धन्यणकारः, अकारः इत्युक्ते त्रयाणां वर्णानां समूहः अस्ति. ष्ण इत्यत्र हलोऽनन्तराः संयोगः इति सूत्रमस्ति. इदं सूत्रं संज्ञासूत्रं. तस्मिन् सूत्रे सर्वाणि पदानि प्रथमाविभक्त्यन्तानि. यस्मिन् कस्मिन्नपि सूत्रे पदानि प्रथमाविभक्तौ सन्ति चेत् तत्सूत्रं संज्ञासूत्रम् इति वक्तुं शक्नुमः. अत्र तस्य प्रसङ्गः किमर्थमस्ति? नन्द्राः संयोगादयः इत्यस्मिन् सूत्रे केषां वर्णानां संयोगः अस्ति चेत् द्वित्वं न भवति इति अत्र प्रश्नः. नन्द्राः इत्यत्र न इति पदम् आदौ अस्ति इति कृत्वा इदं सूत्रं निषेधकसूत्रम्. ऊर्णु इति धातोः प्रसङ्गे णत्वं किमर्थं भवति? भवान् वदतु.
ऊर्णु इत्यत्र ऊर्णु इत्यत्र रेफ अस्ति, रसाभ्यां नोण समानपदे इत्यनेन मूर्धन्यशक मूर्धन्यनकारः.
रेफस्य साक्षात् अनन्तरं दन्त्यनकारः अस्ति. ऊर्णु इति धातौ यः मूर्धन्यनकारः दृश्यते सः मूर्धन्यनकारः मूलस्थित्यां वस्तुतः सः नकारः दन्त्यनकारः एव. किन्तु रेफस्य कारणात् रेफः निमित्तमस्ति इति कारणतः रेफस्य साक्षात् अनन्तरं दन्त्यनकारः अस्ति इति कारणतः रसाभ्यां नोणः इति सूत्रेण णत्वं भूत्वा ऊर्णु इति रूपं सिद्ध्यति. द्वित्वस्य अनन्तरं किं भवति वदतु.
द्वित्वस्य अनन्तरं तत्र ऋणु इति अस्ति, रेफ अस्ति, णकार अस्ति, अनन्तरं उकार अस्ति. तत्र नन्द्राः संयोगादयः इति सूत्रेण आदौ यत्र रेफ अस्ति तस्य द्वित्वं न भवति, अतः नु एव भवति द्वित्वम्, अतः ऊर्णु नु इति भवति.
किमर्थं णत्वं पुनः न भवति?
तत्र रेफ नास्ति अतः णत्वं न भवति. णत्वं निमित्तं नास्ति,
निमित्तं नास्ति इति वदामः वा? नो चेत् मूर्धन्यणकारः बाधकवर्णः अस्ति इति वदामः वा?
मूर्धन्यणकारः बाधकवर्णः अस्ति. अहं चिन्तितवान् तत्र रेफ न द्वित्वं न भवति, अतः रेफ नास्ति अतः द्वित्वं न भवति इति चिन्तितवान्.
अहं चिन्तयामि ऊर्णु इत्यत्र पूर्वं रेफः अस्ति इति कारणतः रेफकारणात् रसाभ्यां नोणः इति सूत्रेण णत्वं भवति. ऊर्णोनु इत्यत्र द्विवारं किमर्थं मूर्धन्यणकारः न दृश्यते? अट्कुप् वाङ्नुं व्यवायेपि इति एकं सूत्रमस्ति, णत्वविधायकसूत्रम्. अधोभागे णत्वप्रसङ्गे लिखितमस्ति. ऊर्णोनु इत्यत्र रेफः निमित्तमस्ति, नु इत्यत्र यः दन्त्यनकारः अस्ति, रेफदन्त्यनकारयोः मध्ये मूर्धन्यणकारः बाधकवर्णः अस्ति. रेफदन्त्यनकारयोः मध्ये अट् प्रत्याहारस्थवर्णाः, कवर्गीयवर्णाः, पवर्गीयवर्णाः, आङ् उपसर्गः, अनुस्वारः एते वर्णाः रेफदन्त्यनकारयोः मध्ये सन्ति चेदपि णत्वं भवति. इत्युक्ते कवर्गीयव्यञ्जनानि पवर्गीयव्यञ्जनानि रेफदन्त्यनकारयोः मध्ये सन्ति चेदपि बाधा नास्ति, किन्तु टवर्गीयव्यञ्जनानि तवर्गीयव्यञ्जनानि सन्ति चेत् तत्र बाधकवर्णाः भवन्ति, यद्यपि निमित्तम् अस्ति. अत्र मूर्धन्यणकारः बाधकवर्णः, अतः णत्वं निषिध्यते. तदर्थमेव द्वितीयवारं णत्वं न आगतं. तदर्थमेव ऊर्णुनु. मुख्यवार्ता कः? नन्द्राः संयोगादयः. यस्मिन् धातौ संयोगः अस्ति, संयोगः इत्युक्ते स्वरस्य विरामं विना व्यञ्जनानाम् उच्चारणमस्ति यस्मिन् धातौ, तत्र संयोगस्य आदिमवर्णः रेफः अथवा नकारः अथवा दकारः एतेषु अन्यतमवर्णः अस्ति चेत् तस्य वर्णस्य द्वित्वं न भवति. इदं सूत्रं निषेधकसूत्रं, द्वित्वनिषेधकसूत्रं. तदर्थमेव ऊर्णुर्णु इति भवति स्म, किन्तु तथा न भवति.
महोदय तत्र समानपदे इति अस्ति, अत्र समानपदं नास्ति. ऋणु इति अन्यत् अस्ति, ऋणु इति अन्यत् अस्ति. अतः चिन्तयामि ऋणु इति तत्र द्वितीयपदमेव अस्ति, तत्र तत्र सूत्रे समानपदम् इति अस्ति.
अट्कुप्वाङ्गनुं व्यवायेऽपि सूत्रमपि समानपदे एव कार्यं करोति. कथं? पूर्णम् इत्यत्र रषाभ्यां नोणः सूत्रेण अणत्वं भवति. कार्येण इति पश्यामश्चेत् कार्येण इत्यत्र रेफात् परं यकारः अस्ति, एकारः अस्ति. अट्कुप्वाङ्गनुं व्यवायेऽपि सूत्रे अपि समानपदे इत्यस्य अनुवृत्तिः अस्ति. अत्र ऊर्णुनु इत्यत्रापि एकमेव पदमस्ति. कदा वदामः पदद्वयमस्ति इति? पूर्वम् उपसर्गः अस्ति चेत् तत् भिन्नं पदं भवति, अथवा पदद्वयमस्ति चेत्. अखण्डपदं सखण्डपदम्. अखण्डपदम् इत्युक्ते एकमेव पदं, समानपदम्. ऊर्णुनु इति एकमेव पदमस्ति. पदसंज्ञा नास्ति, एतावत्पर्यन्तं पदसंज्ञा न आयाति खलु ऊर्णुनु इत्यत्र. अन्ते तिङ् प्रत्ययः अथवा सुप्रत्ययः नास्ति इत्यतः पदसंज्ञा इदानीं पर्यन्तं न आगतम्. ऊर्णुनु इत्यत्र अट्कुप्वाङ्गनुं व्यवायेऽपि इति सूत्रस्य प्रसक्तिः अस्ति. मूर्धन्यणकारः अट् प्रत्याहारस्थवर्णः नास्ति. कुप् इति कथनेन कवर्गीयव्यञ्जनं नास्ति, पवर्गीयव्यञ्जनं नास्ति. आङ् उपसर्गः नास्ति. नुम् इत्युक्ते अनुस्वारः नास्ति. मूर्धन्यणकारः टवर्गीयव्यञ्जनं, टाठा डाढाण टवर्गीयव्यञ्जनं रेफदन्त्यनकारयोः मध्ये अस्ति चेत् बाधकवर्णः भवति, बाधा भवति. अतः णत्वं निषिध्यते इति कृत्वा ऊर्णुनु इति रूपं.
भ्रमः अस्ति महोदय, अन्यत् एकः भ्रमः अस्ति. तत्र जागृ मध्ये अहम् अन्यत् कक्षा अन्यकक्षायां श्रुतवान्, तत्र किं कुर्मः इत्युक्ते यत्र अच् द्वयमस्ति तत्र प्रथमसूत्रात् अन्वय तत्र द्वितीय अच्वर्ण त्यजामः, त्यक्त्वा यत् भागं भवति तिष्ठति तस्य द्वित्वं कुर्मः. अनन्तरं द्वितीयसूत्रे अजादे द्वितीयस्य तत्र किं कुर्मः इत्युक्ते प्रथम अच्वर्ण यत् अस्ति तत् त्यजामः, त्यक्त्वा किं तिष्ठति तस्य द्वित्वं कुर्मः इति श्रुतवान्. तत्र जागृ मध्ये जा जागृ भवेत्, जाग् जागृ भवेत्, परन्तु तत्र गकारस्य किमपि सूत्रेण सूत्रेण लोपो भूत्वा जा इति एव अवशिष्यते इति श्रुतवान्. एतत् किम् अस्ति, कृपया अग्रिमकक्षायां स्पष्टीकरोतु महोदय.
द्वित्वप्रसङ्गे अपि मतभेदाः सन्ति इति मया पठितम् अस्मिन् जालस्थाने एव. अस्मिन् जालस्थाने एव द्वित्वप्रकरणम् इति अन्यत् करपत्रमस्ति, भवन्तः इच्छन्ति चेत् एकवारं पठन्तु. द्वित्वप्रसङ्गे अपि मतभेदाः सन्ति, किन्तु मातृभिः मतं स्वीकृतमस्ति, तेन आधारेण एव वयं पठामः. प्रथम एकाच् अवयवः जा अस्ति, द्वितीय एकाच् भागः गृ अस्ति. तदा एकाचो द्वे प्रथमस्य, प्रथमस्य एकाच् भागस्य द्वित्वम्.
अद्य किम् उक्तवती भवती तत् जा जा अनन्तरं गृ, तदेव तदपि समीचीनं श्रूयते, अतः भ्रमः. तदपि समीचीनं श्रूयते यत् प्रथम अवयव इत्युक्ते जा इति प्रथम अवयव, गृ इति द्वितीय अवयव, तदपि समीचीनं श्रूयते.
द्वित्वम् इति अन्यत् करपत्रमस्ति, कक्षायाः अनन्तरं तत् करपत्रं प्रेषयामि.
इत्युक्ते मम भ्रमः किम् अस्ति, अतः जा इति प्रथम एकाच अवयव अस्ति, अतः पच् पच् इत्यत्र अपि प इति प्रथम अवयव भवेत् इति मम भ्रमः. प प पच् इति भवेत् इति, यथा जा जागृ जा जागृ भवति, प पच् प इति प्रथम अवयव प्रथम एकाच अवयव अस्ति इति मम भ्रमः भवति अत्र.
साधु. ऊर्णु धातुः अस्ति खलु, ऊर्णुनु इति रूपं कुत्र आयाति? ऊर्णु धातोः सन्नन्तरूपं पश्यन्तु. ऊर्णु धातोः सन्नन्तलटीरूपम् अस्ति ऊर्णुनूषति. ऊर्णुनूषति इति रूपं साधयितुम् इच्छामश्चेत् तत्र द्वित्वं भवनीयं. द्वित्वं भवति चेत् ऊर्णुनूषति इति रूपं भवति. यङ्गन्तरूपेषु अपि द्वित्वं भवति. ऊर्णु धातोः यङ्गन्तरूपम् ऊर्णुनूयते, तत्र द्वित्वकार्यं भवति. केवलम् ऊर्णु इति धातुं स्वीकुर्मः चेत् लटीरूपम् अस्ति ऊर्णोति इति एकं रूपम् अस्ति, ऊर्णौति इति रूपमपि अस्ति. रूपद्वयं सिद्ध्यति ऊर्णुतेर्विभाषा इति सूत्रेण. ऊर्णितेर्विभाषा इति सूत्रेण विकल्पेन तत्र रूपद्वयं सिद्ध्यति. एकस्मिन् पक्षे गुणकार्यं भवति, अन्यस्मिन् पक्षे वृद्धिकार्यं भवति. अतः ऊर्णोति ऊर्णौति इति रूपद्वयं सिद्ध्यति. किन्तु अस्माकं वार्ताक नन्द्राः संयोगादयः, संयोगस्य आदौ नकारः दकारः रेफः अस्ति चेत् तस्य द्वित्वं न भवति. एतदवगन्तुम् अन्यानि कानिचन उदाहरणानि एकवारं परिशीलयाम.
नियमसूत्र अपि वक्तुं शक्नुमः, नन्द्राः संयोगादय नियमसूत्रमपि वक्तुं शक्नुमः.
द्वित्वकार्यं निषिध्यते खलु,
निषिध्यते, अस्तु अस्तु, निषेधकसूत्र न इति अस्ति.
ऊर्णु इत्यत्र द्वितीयभागस्य द्वित्वं भवेत्. द्वित्वं द्वितीयभागस्य भवति चेत् ऊर्णुरुणु भवति स्म, किन्तु नन्द्राः संयोगादयः सूत्रेण संयोगस्य आदौ रेफः अस्ति इति कारणतः रेफस्य द्वित्वं मा भवतु इति सूत्रेण उच्यते. तदर्थमेव ऊर्णुनु तत्र णत्वकार्यमपि अस्ति. मम पुरतः केचन अन्यधातवः सन्ति. अङ्गि इति अस्ति. अङ्गि इत्यत्र मूले तु दन्त्यनकारः एव, किन्तु गकारः अस्ति इति कारणतः परसवर्णादेशं कृत्वा लिखामः अङ्गि. तत्र द्वित्वं भवति चेत् किं भवति?
अङ्गि इत्यत्र अङ्गि इत्यत्र अङ्गिगि भवति.
अङ्गिगि. अर्चि अस्ति चेत्
अर्चेत् अर्चिचि भवति.
कथं तत् कार्यं भवति किञ्चित् विवृणोतु.
अर्चिचि इत्यत्र प्रथम अजादि अस्ति, प्रथमे अ अस्ति, अनन्तरं रेफ अस्ति, चकार अस्ति, इकार अस्ति, अतः तस्य द्वित्वं भवति. परन्तु तत्र रेफः चकारसंयोगः अस्ति, आदौ रेफ अस्ति, रेफस्य न नन्द्राः संयोगाद इति सूत्रेण द्वित्वं न भवति, केवलं चि इत्यस्य द्वित्वं भवति, अतः अर्चि चि इति भवति.
उत्तमं महोदय, धन्यवादाः. अर्चि इति धातुं स्वीकुर्मः चेत् धातुः अजादिः अपि च अनेकाच्, अतः अजादेर्द्वितीयस्य इति सूत्रेण अर्चिर्चि भवति स्म, किन्तु तथा न भवति. किमर्थं चेत् अत्र संयोगः अस्ति, रेफचकारयोः संयोगः अस्ति, संयोगस्य आदौ रेफः अस्ति इति कारणतः अर्चि इत्यत्र रेफस्य द्वित्वं न भवति. नन्द्राः संयोगादयः सूत्रेण न भवति. एवमेव अञ्जि इति वदामश्चेत् तत्र अञ्जिजि इति रूपं सिद्ध्यति. अञ्जि इति लिखामश्चेत् मूले दन्त्यनकारः एव आसीत्, किन्तु अनुस्वारस्य ययि परसवर्णः इति सूत्रेण अनुस्वारस्य स्थाने परसवर्णादेशं कृत्वा चवर्गस्य अन्तिमव्यञ्जनं लिखामः अञ्जि इत्यत्र. अञ्जि इत्यत्रापि नन्द्राः संयोगादयः इति सूत्रेण संयोगस्य आदौ दन्त्यनकारः अस्ति इति कारणतः तस्य द्वित्वम् अभूत्वा अञ्जिजि इति रूपं सिद्ध्यति. अञ्जि, अङ्गि, अङ्कि इत्यादिषु संयोगस्य आदौ नकारः, अर्चि इत्यत्र रेफः अस्ति, संयोगस्य आदौ अद्डि इति रूपमपि अस्ति. अद्डि इति कथनेन डकारः डकारः द्वयोः संयोगः अस्ति अद्डि इत्यत्र. संयोगस्य आदौ दकारः अस्ति इति कारणतः दकारस्य द्वित्वं न भवति. नन्द्राः संयोगादयः इति सूत्रेण अद्डि इत्यत्र दकारस्य द्वित्वं निषिध्यते. अत्र इतोपि एकः धातुः अस्ति उन्दिश. तस्य दर्शनेन किम् अवगन्तुं शक्नुमः? सुन्दरमहोदय, भवान् वदतु. उन्दिश तत्र किं भवति वदतु.
उन्दिश इति कथनेन प्रथमम् उन्दिश इति कथनेन प्रथमम् उन्द् भवति, तस्य द्वित्वं भूत्वा उन्द् 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 भवति. तदनन्तरं उन्दि इकारस्य द्वित्वं भवति उन्दि दि इति भवति, उन्दि भवति. तदनन्तरं शकारस्य द्वित्वं न भवति, शकारस्य द्वित्वं न भवति इति कारणेन नकारस्य नन्द्राः संयोगादयः इति सूत्रेण नकारस्य द्वित्वं न भवति, उन्दि दि एव भवति, शकारस्य अपि द्वित्वं न भवति, उन्दि दि योगे श, उ योगे इन्दि योगे दि योगे श, उन्दिदिश इति अन्तिमं रूपं सिद्ध्यति।
इतोपि स्पष्टतया वक्तव्यं, नरेश महोदय पुनः वदतु।
अत्र पुनः संशयः अस्ति, उन्दि उन्दि दिश भवति, परन्तु दकारस्य द्वित्वं कथं भवति, न नन्द्राः संयोगादयः, दकारस्य तु द्वित्वं न भवितुं शक्नोति, कथं भवति उन्दि दिश?
अनुवृत्तिसहितसूत्रं पश्यन्तु, अजादेर् द्वितीयस्य इति सूत्रं सम्पूर्णतया अस्मिन् सूत्रे अनुवृत्तं भवति। अजादेर् द्वितीयस्य नन्द्राः संयोगादयः द्वे, एकाचो द्वे प्रथमस्य अधिकारसूत्रम्, अजादेर् द्वितीयस्यापि अधिकारसूत्रम्। अधिकारसूत्रम् इत्युक्ते तस्य अनुवृत्तिः सम्पूर्णतया सर्वेषु सूत्रेषु अस्ति। अस्मिन् सूत्रे अजादेर् द्वितीयस्य इत्यस्य सम्पूर्णानुवृत्तिः अस्ति। अत्र धातुः अस्ति उन्दि, उन्दि कीदृशधातुः? अजादिः अपि च अनेकाच् अस्ति, अजादिः अनेकाच्, अजादिः अनेकाच् अस्ति चेत् अजादेर् द्वितीयस्य कार्यं भवति।
तत्र अजाद द्वितीयस्य, द्वितीय तु अस्ति उन्दि, उन्दि, परन्तु अहं चिन्तयामि अत्र निषेधः अस्ति दकारस्य द्वित्वं,
नकारस्य निषेधः,
नकारस्य अपि च दकारस्य अपि रकारस्य रेफस्य।
उन्दि इत्यत्र कति भागाः सन्ति? एकाच भागाः, उ इति एकाच भागः, प्रथम एकाच भागः, इन्दि नकारः, दकारः, इकारः, एते त्रयः वर्णाः मिलित्वा द्वितीय एकाच भागः, उ इति प्रथम एकाच भागः, इन्दि इति द्वितीय एकाच भागः, अजादेर् द्वितीयस्य इति सूत्रेण उन्दिन्दि भवति स्म, किन्तु तद्रूपम् असाधु। किमर्थम् इत्युक्ते उन्दि इत्यत्र नकार दकार इकारयोः संयोगः अस्ति, हलोनन्तराः संयोगः इति संज्ञासूत्रेण स्वरवर्णस्य विरामं विना नकारः दकारः संयोगः अस्ति। संयोगस्य आदौ न्दि इत्यत्र नकारदकारयोः संयोगः, संयोगस्य आदौ दन्त्यनकारः अस्ति, संयोगस्य आदौ दन्त्यनकारः अस्ति इति कारणतः नन्द्राः संयोगादयः सूत्रेण दन्त्यनकारस्य द्वित्वं मा भवतु इति सूत्रेण उच्यते। अतः एव उन्दि योगः दि, अजादेर्द्वितीयस्य इत्यनेन द्वितीयस्य द्वितीय एकाच भागस्य द्वित्वं भवतु इति तु सत्यं, किन्तु अत्र नकारदकारयोः संयोगः अस्ति इति कारणतः तृतीयं सूत्रम् आगत्य दन्त्यनकारस्य द्वित्वं निषेधयति, उन्दि दि इति रूपमेव भवति।
केवलं नकारस्य निषेधः अस्ति, कथं न दकारस्य निषेधः अस्ति?
संयोगस्य आदौ कः वर्णः अस्ति तस्य वर्णस्य एव द्वित्वं निषिध्यते।
केवलम् आदौ
संयोगस्य आदिमवर्णस्य द्वित्वम्।
अस्तु अस्तु, तत्तु सम्यक् अस्ति, आदौ नकारः अस्ति, तस्य द्वित्वं न भवति। अस्तु,
ऊर्णु इत्यस्मिन् धातौ रेफः संयोगस्य आदौ अस्ति इति कारणतः रेफस्य द्वित्वं निषिध्यते। उन्दिश इत्यत्र नकारदकारयोः संयोगः, संयोगस्य आदिमवर्णः दन्त्यनकारः, अतः तस्य द्वित्वं निषिध्यते। शा इति किमर्थमस्ति इति प्रश्नः उदेति। सन्नन्तरूपेषु सर्वदा द्वित्वं भवति. तदर्थमेव अग्रिमभागे संयङ्गोः इति नवमं सूत्रं दत्तमस्ति. अत्र संयङ्गोः इति सूत्रेण द्वित्वं भूत्वा उन्दिदिश इति नूतनधातोः निर्माणं भवति. तस्य लटीरूपम् उन्दिदिशति, यथा पिपठिषति. पठ्धातोः सन्नन्तरूपं पिपठिषति, एवमेव उन्दिदिशति. सन् इति प्रत्ययः अस्ति खलु, सन् प्रत्यये नकारः इति संज्ञकवर्णः. सन् इत्यत्र दन्त्यनकारः इति संज्ञकः भूत्वा तस्य लोपः इत्यनेन अपगच्छति. सा इति अवशिष्यते. सा इति सकारः अकारः वर्णद्वयमस्ति, अतः सन्नन्तधातवः सर्वे अदन्ताः. उन्दिदिश अन्ते अकारः श्रूयते. अयं धातुः सन्नन्तधातुः. कार्यं भवितुं विधिसूत्रम् आवश्यकं खलु. उन्दिदिश इति रूपं साधयितुं, नूतनधातोः रूपं साधयितुं संयङ्गोः इति सूत्रम् आवश्यकं. तेन विधिसूत्रेण द्वित्वं भूत्वा उन्दिदिश इति नूतनधातुः, तस्मात् परं तिङ् प्रत्ययं योजयामः, तेन उन्दिदिशति. एवमेव यङन्तधातोः रूपेषु अपि द्वित्वं भवति. भूधातोः यङन्तरूपं बोभूयते. द्वित्वकार्यानन्तरम् अभ्याससंज्ञाम् आश्रित्य, अभ्यस्तसंज्ञाम् आश्रित्य अन्यानि विशिष्ट अभ्यासकार्याणि भवन्ति इति एका वार्ता. आहत्य तृतीयसूत्रस्य अर्थः कः? धातुः अजादिः अनेकाच् चेत् संयोगस्य आदौ नकारः, दकारः, रेफः एतेषु त्रिषु वर्णेषु अन्यतमवर्णः संयोगस्य आदौ अस्ति चेत् तदा तस्य वर्णस्य द्वित्वं न भवति. तदर्थमेव उन्दिदिश इति सन्नन्तधातोः रूपम् अत्र दत्तमस्ति. सूत्रद्वयं पठित्वा समापयाम. पूर्वाभ्यासः उभे अभ्यस्तम्.
उन्दि इत्यत्र इकारः कथम् आगच्छति?
सूत्रमस्ति,
अत्र न दत्तं खलु.
संयतः इति सूत्रमस्ति. संयतः यदा द्वित्वं भवति, द्वित्वकार्यानन्तरम् अन्यानि विशिष्टानि अभ्यासकार्याणि भवन्ति. अभ्यासकार्याणि इत्युक्ते अभ्यासस्य अल्पप्राणत्वं. धाधातुः अस्ति खलु, धाधातोः रूपमेव दधाति. आदौ अल्पप्राणदकारः कुतः आगतः? तत्र अभ्यासकार्यं भवति. द्वित्वकार्यानन्तरं कानिचन अभ्यासकार्याणि भवन्ति. अभ्याससंज्ञा भवति पूर्वभागस्य. भवती एव पठतु पूर्वाभ्यासः.
पूर्वाभ्यासः षष्ठाध्यायस्य प्रथमपादस्य चतुर्थसूत्रं. पूर्वाभ्यासः द्वयोः, पूर्वाभ्यासः द्वयोः तावदेव संज्ञासूत्रं.
किञ्चित् वदतु.
पूर्वाभ्यासः इत्युक्ते यत्र द्वित्वकारं भवति तदनन्तरं प्रथमभागस्य अपि च द्वितीयभागस्य द्वयोः मिलित्वा अभ्याससंज्ञा भवति. न पूर्वभागस्य एव अभ्याससंज्ञा भवति. यदा द्वित्वं भवति तत्र पूर्वं विद्यमानस्य भागस्य अभ्याससंज्ञा भवति इति.
पठ्धातोः प्रसङ्गे वदतु, द्वित्वं कथं भवति, अभ्यस्तं किम्, अभ्यासः कः, वदतु.
इदानीं पठ् धातु स्वीकुर्मः चेत् हलादिधातुः अस्ति, एकाच् धातुः अस्ति. एकाच् द्वे प्रथमस्य इति सूत्रेण पठ् फट् इति द्वित्वकार्यं भवति. तदनन्तरं पठ् इति प्रथमभागस्य अभ्याससंज्ञा भवति. तदनन्तरं पट् फट् उभयोः मिलित्वा अभ्यस्तसंज्ञा भवति.
तावदेव. इदं सूत्रद्वयं संज्ञासूत्रद्वयं. द्वयोः पूर्वः अभ्यासः, द्वित्वकार्यानन्तरं द्वयोः पूर्वः अभ्यासः इत्युक्ते पूर्वभागस्य अभ्याससंज्ञा भवति. दाधातुः अस्ति चेत् किं भवति, वदतु.
दाधातुः अस्ति चेत् तदपि एकाच् धातुः अस्ति, हलादिधातुः अस्ति. एकाच द्वे प्रथमस्य इत्यनेन द्वित्वकार्यं भवति, अतः दाधा इति रूपमस्ति. द्वित्वकार्यानन्तरं दा इति प्रथमभागस्य अभ्याससंज्ञा भवति, धा धा इति मिलित्वा अभ्यस्तसंज्ञा भवति।
उत्तमं। दा धातुः अपि अस्ति, धा धातुः अपि अस्ति। दा धातोः प्रसङ्गे ददाति इति रूपं द्वित्वं भूत्वा जुहोत्यादिगणे दादा इति रूपं सिद्ध्यति। पूर्वभागस्य प्रथमदा इत्यस्य अभ्याससंज्ञा द्वयोः मिलित्वा दादा इत्यस्य अभ्यस्तसंज्ञा भवति। किमर्थम् एवं नामकरणं कृतमस्ति? पूर्वभागस्य अभ्याससंज्ञा द्वयोः मिलित्वा अभ्यस्तसंज्ञा, एतादृशं नामकरणं किमर्थं कृतमस्ति? द्वित्वानन्तरं संज्ञाद्वयम् आश्रित्य कानिचन कार्याणि भवन्ति। उदाहरणार्थं दाधातोः प्रसङ्गे पश्यामश्चेत् दाधातुः जुहोत्यादिगणे अस्ति। जुहोत्यादिगणे जुहोत्यादिभ्यः श्लुः इति सूत्रेण शपः श्लु भूत्वा तत्पश्चात् श्लौ इति सूत्रेण द्वित्वं भवति। द्वित्वं भवति चेत् दादा इति रूपं सिद्ध्यति। दादा द्वयोः मिलित्वा अभ्यस्तसंज्ञा अस्ति। प्रथमदा इत्यस्य इत्युक्ते पूर्वभागस्य दा इत्यस्य ह्रस्वत्वं भवति, ददाति इति भवति। दादा इत्यत्र प्रथमदा इत्यस्य ह्रस्वत्वं भवति, तदर्थमेव अत्र संज्ञाद्वयं कृतमस्ति। ह्रस्वः इति सूत्रेण प्रथमदा इत्यस्य ह्रस्वत्वं भूत्वा ददाति इति रूपं भवति। एवमेव दधाति इत्यत्रापि ह्रस्वत्वं भवति, अपि च अभ्यासे चर्च इति सूत्रेण चर्त्वमपि भवति। इत्युक्ते द्वित्वकार्यानन्तरम् अभ्याससंज्ञाम् आश्रित्य अभ्यस्तसंज्ञाम् आश्रित्य अन्यानि कार्याणि सन्ति। तदर्थमेव एवं रीत्या संज्ञाद्वयं कृतमस्ति। अग्रिमं सूत्रमस्ति जक्षित्यादयः षट्। सुन्दरमहोदय भवान् पठतु।
अत्र उभय जक्षित्यादयः षट्, षष्टमाध्यायस्य प्रथमभागस्य षष्टमं सूत्रम्। ओके, जक्षित्यादयः षट् अभ्यस्तम्, एतदेव सूत्रम्। अदादिगणे एकः अन्तर्गतः वर्तते यस्मिन् सप्तधातवः सन्ति, जक्ष, जागृ, दरिद्रा, चकास, शास, दीधिङ् वेविङ् च। तेषां द्वित्व अभावे अपि द्वित्वाभावेऽपि अभ्यस्तसंज्ञा। ओके, अस्तु। अत्र जक्षित्यादयः षट् इति सूत्रेण जक्ष् इत्यादयः षट् अभ्यस्तम्, अभ्यस्तसंज्ञा, अभ्यस्तसंज्ञा एव स्वीकर्तव्यम्। अदादिगणे एकः अन्तर्गतः यस्मिन् सप्तधातवः सन्ति, एते धातवः जक्ष् आदयः धातवः, तत्र तेषां धातूनां द्वित्व अभावे अपि अभ्यस्तसंज्ञा किम् इत्युक्ते, ओके, जक्ष् ज अभ्याससंज्ञा ज भवति।
महोदय तथा आगच्छतु, पूर्वाभ्यासः सूत्रेण किम् अवगतं भवान् वदतु, भवतः अवगमनं किम्?
पूर्वाभ्यासः इत्युक्ते जक्ष् इति धातोः पूर्वं ज एव अभ्याससंज्ञा भवति।
महोदय जक्ष् धातुं त्यजतु, केवलं सूत्रं पठित्वा किम् अवगतवान्?
पूर्वाभ्यासः इत्युक्ते पूर्व अभ्याससंज्ञा, पूर्णवर्णः पूर्ववर्णः अभ्याससंज्ञां प्राप्नोति, संज्ञासूत्रमेव द्वयोः पूर्ववर्णः एव अभ्यास इति संज्ञां प्राप्नोति, तदेव मया अवगतम्।
जागृधातोः प्रसङ्गे द्वित्वं करोतु, तत्र कस्य अभ्याससंज्ञा कस्य अभ्यस्तसंज्ञा अस्ति?
जागृ इति धातोः जा इति अभ्याससंज्ञा भवति, जागृ इति अभ्यस्तसंज्ञा भवति.
महोदय, द्वयोः मिलित्वा अभ्यस्तसंज्ञा.
तदेव मया कथितं किल, जागृ इति द्वयोः मिलित्वा एव अभ्यस्तसंज्ञा भवति. केवलं जा इति अभ्याससंज्ञा भवति.
उभे अभ्यस्तं सूत्रं पठित्वा किम् अवगतं वदतु.
उभे अभ्यस्तम् इति सूत्रं भवति. उभे द्वे अभ्यस्तम् इति संज्ञासूत्रं. धातोः द्वे अपि वर्णाः स्वीकृत्य जागृ इति धातोः जागृ इति उभे अपि स्वीकृत्य अभ्यस्तसंज्ञा भवति. जागृ इति पूर्णं उभे द्वे अपि स्वीकृत्य अभ्यस्तसंज्ञा भवति जागृ. केवलं जा स्वीकृत्य अभ्याससंज्ञा भवति. तदेव किल.
कश्चित् भ्रमः अस्ति. सुजाता भगिनी, भवती वदतु, जागृ धातोः प्रसङ्गे कस्य अभ्याससंज्ञा अस्ति, कस्य अभ्यस्तसंज्ञा अस्ति?
जागृ धातोस्य जादित्वं भवति प्रथम अच् वर्णस्य वर्णः दित्वं भवति. जा इति अभ्यससंज्ञा भवति. जागृ इति अभ्यस्तसंज्ञा भवति.
आहत्य मम आशयः कः इत्युक्ते, द्वित्वकार्यानन्तरं जागृधातोः प्रसङ्गे जा जागृ इति रूपं सिद्ध्यति. एकाचो द्वे प्रथमस्य इति सूत्रेण जा जागृ इति रूपं सिद्ध्यति. सम्पूर्णशब्दसमुदायः जा जागृ, एतत् सर्वं मिलित्वा अभ्यस्तम् इति वदामः. सम्पूर्णशब्दसमुदायस्य अभ्यस्तसंज्ञा अस्ति जा जागृ. सम्पूर्णस्य अभ्यस्तसंज्ञा अस्ति. केवलं पूर्वभागस्य, पूर्वभागस्य इत्युक्ते जा इत्यस्य एव
अभ्यासज्ञा.
किमर्थं जक्षित्यादयः षट् इत्यस्मिन् सूत्रे अभ्यस्तसंज्ञायाः आवश्यकता अस्ति इति प्रश्नः. दश धातुगणाः सन्ति खलु. दशसु गणेषु केवलं जुहोत्यादिगणे एव द्वित्वं भवति. श्लौ इति सूत्रेण जुहोत्यादिगणे एव द्वित्वं भवति. द्वित्वं भवति चेत् द्वित्वकार्यानन्तरं सम्पूर्णशब्दसमुदायस्य अभ्यस्तसंज्ञा केवलं पूर्वभागस्य एव अभ्याससंज्ञा अस्ति इति पठितं. किन्तु अदादिगणः अस्ति. अदादिगणे कश्चन अन्तर्गणः अस्ति. धातुगणेषु प्रत्येकस्मिन् गणे केचन अन्तर्गणाः सन्ति, लघुगणाः. अदादिगणे द्वित्वकार्यं न कदापि भवति. अदादिगणे किं भवति? अदिप्रभृतिभ्यः शपः लुक्, शपः लुक् भवति अदादिगणे. अदादिगणे द्वित्वं न कदापि भवति. अदादिगणे द्वित्वस्य अभावे अपि एतेषां धातूनां विषये अभ्यस्तसंज्ञा दीयते अनेन सूत्रेण. इत्युक्ते अदादिगणे एकः अन्तर्गणः अस्ति, तस्य नाम जक्षित्यादिगणः. जक्षित्यादिगणे सप्तधातवः सन्ति. जक्षधातुम् आदाय, जक्षधातुं स्वीकृत्य अन्ये षड् धातवः सन्ति. जक्ष, जाग्र, दरिद्रा, चकास, सास, दीधीङ्, वेवीङ् च. जक्षधातुं त्यक्त्वा षड् धातवः, जक्षधातुं मिलित्वा सप्तधातवः. एते धातवः अदादिगणे सन्ति. एते धातवः अदादिगणे सन्ति इति कारणतः तत्र द्वित्वं न भवति. द्वित्वस्य अभावे अपि द्वित्वं न भवति चेदपि किमर्थं न भवति? एते धातवः अदादिगणे सन्ति. तत्र द्वित्वस्य अभावे अपि एतेषां धातूनाम् अभ्यस्तसंज्ञा दीयते. किमर्थम् एवम्? अभ्यस्तसंज्ञाम् आश्रित्य कानिचन विशिष्टानि कार्याणि भवन्ति. तदर्थमेव अत्र द्वितीये वाक्ये लिखितमस्ति, एतेषां धातूनां प्रसङ्गे द्वित्वस्य अभावे अपि अभ्यस्तसंज्ञा दीयते. सम्पूर्णधातुः जक्षधातुः अभ्यस्तसंज्ञकः, दरिद्राधातुः अभ्यस्तसंज्ञकः, यद्यपि द्वित्वं नास्ति. एते धातवः अदादिगणीयाः. दरिद्राधातोः प्रसङ्गे द्वित्वं नास्ति चेदपि सम्पूर्णधातोः अभ्यस्तसंज्ञा दीयते, किमर्थम् इति प्रश्ने सति दरिद्राधातोः प्रसङ्गे दरिद्राति, दरिद्रतः इत्यादीनि रूपाणि भवन्ति तत्र। तादृशानि रूपाणि साधयितुम् इच्छामश्चेत् अभ्यस्तसंज्ञाम् आश्रित्य कानिचन कार्याणि भवन्ति। भवतः अवगमनं किम् इदानीं सुन्दरमहोदय वदतु।
अत्र एते सप्तधातु धातूनाम् अभ्यस्तसंज्ञा विहितः, किमर्थं चेत् तत्र अभ्यस्तसंज्ञाम् आश्रित्य कानिचन कार्याणि भवन्ति इति इति कारणतः जुहोत्यादिगणे अभूत्वापि अदादिगणे एव अभ्यस्तसंज्ञां विहितः एते सप्तधातूनाम् इति मम अवगमनम्। द्वित्वाभावे अपि अभ्यस्तसंज्ञाम् अत्र दीयते एते सप्तधातूनाम्।
उत्तमम्। किमर्थम् अभ्यस्तसंज्ञा दीयते? दरिद्राधातुः अदादिगणे अस्ति, दरिद्राधातोः रूपं पश्यामश्चेत् दरिद्रति इति बहुवचनरूपं सिद्ध्यति तत्र। दरिद्राति प्रथमपुरुष एकवचनरूपं, दरिद्रितः द्विवचनं, प्रथमपुरुष बहुवचनरूपं पश्यामश्चेत् तत्र रूपमस्ति दरिद्रतु। धातुः तु दरिद्रा, दीर्घ आकारः अन्ते अस्ति। दरिद्राधातोः प्रसङ्गे प्रथमपुरुष बहुवचनरूपं पश्यन्तु, दरिद्रति इति रूपमस्ति लट्लकारे, लोट्लकारे दरिद्रतु अस्ति। तत्र दीर्घ आकारः कुत्र गतः इति प्रश्नः उदेति। दरिद्रा अभ्यस्तसंज्ञकः, तस्मिन् धातौ द्वित्वं न भवति चेदपि, धातुः अदादिगणे अस्ति इति कारणतः द्वित्वं न भवति चेदपि दरिद्रा इति सम्पूर्णधातोः अभ्यस्तसंज्ञा दत्ता पाणिनिना। तत्र सूत्रं किम् इत्युक्ते जक्षित्यादयः षट्, जक्षित्यादिगणे दरिद्राधातुः अपि अस्ति। जक्षित्यादिगणे सप्तधातवः सन्ति, तेषु अन्यतमः एव दरिद्राधातुः। दरिद्राधातुः जक्षित्यादिगणे अस्ति, जक्षित्यादिगणः अदादिगणे अस्ति, अदादिगणे द्वित्वं न भवति इत्यतः दरिद्राधातोः प्रसङ्गे सम्पूर्णधातोः अभ्यस्तसंज्ञा दत्ता। किमर्थम् इत्युक्ते अभ्यस्तसंज्ञाम् आश्रित्य कानिचन कार्याणि भवन्ति। तत्र एकं सूत्रमस्ति अदभ्यस्तात्, अदभ्यस्तात् इति सूत्रमस्ति। अत् अभ्यस्तात्, अभ्यस्तसंज्ञकधातोः झि प्रत्ययस्य स्थाने अत् आदेशः भवति इति सूत्रेण उच्यते। अदभ्यस्तात् इति सूत्रम् अभ्यस्तसंज्ञकधातूनां प्रसङ्गे कार्यं करोति। दरिद्राधातोः सम्पूर्णधातोः अभ्यस्तसंज्ञा जक्षित्यादयः षट् सूत्रेण अभ्यस्तसंज्ञा दीयते, अभ्यस्तसंज्ञाम् आश्रित्य अग्रिमं कार्यं भवति। तदर्थमेव तत्र प्रथमपुरुष बहुवचनरूपं लट्लकारे लोट्लकारे अपि दरिद्रति, दरिद्रतु इति रूपं सिद्ध्यति। अदभ्यस्तात् इति एकं सूत्रमस्ति, श्नाभ्यस्तयोरातः इति अन्यत् सूत्रमस्ति। एतादृशानि सूत्राणि अङ्गस्य अभ्यस्तसंज्ञा अस्ति चेदेव कार्यं कुर्वन्ति। दरिद्रा, चकास्, दीधिङ्, वेविङ् एतेषां धातूनां द्वित्वकार्यं नास्ति चेदपि अभ्यस्तसंज्ञा अस्ति इति कारणतः विशिष्टानि अभ्यासकार्याणि भवन्ति। रूपसाधनवेलायाम् अग्रे गत्वा अभ्यासकार्याणि भवन्ति। पुनः एकवारं जुहोत्यादिगणे अस्मिन् प्रसङ्गे विस्तरेण पठिष्यामः, तदा वयं सुलभतया अवगन्तुं शक्नुमः। केवलम् अत्र वार्ता का, द्वित्वप्रकरणे इमानि सूत्राणि सन्ति। द्वित्वं संस्कृतभाषायां पञ्चसु स्थलेषु एव भवति, लिट्लकारे, सन्नन्तरूपेषु, यङ्गन्तरूपेषु, लुङ्लकारे, जुहोत्यादिगणे। द्वित्वप्रसङ्गे यानि यानि सूत्राणि आवश्यकानि तानि सर्वाणि सूत्राणि अत्र स्थापितानि द्वित्वप्रकरणे, इत्युक्ते अष्टाध्यायीग्रन्थे एकस्मिन् एव स्थले इमानि द्वादशसूत्राणि स्थापितानि द्वित्वप्रकरणे। षष्ठं सूत्रपर्यन्तं वयं पठितवन्तः आगामिनि सप्ताहे। सप्तमसूत्रात् आरभ्य पठित्वा किञ्चित् अवगन्तुं प्रयत्नं करिष्यामः। इदानीम् अत्र स्थगयामः। धन्यवादाः।
धन्यवादः
धन्यवादः महोदय, पुनर्मिलामः,
धन्यवादः।